एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा केपी शर्मा ओलिना योग्यतायाः आधारेण त्रिभुवन विश्वविद्यालयस्य संकाय प्रमुखाणां महाविद्यालय प्रमुखाणां च नियुक्तिं कर्तुं निर्देशनं दत्तमस्ति। ह्यः कीर्तिपुरे सम्पन्नायां त्रिभुवन विश्वविद्यालयस्य साधारण सभायां विश्वविद्यालयस्य कुलपतिश्च प्रधानमन्त्री ओली विश्वविद्यालयस्य सञ्चालनम् उपकुलपतिना कर्तव्यं भवतीति स्मारयन् विश्वविद्यालयस्य सञ्चालनाय निष्पक्षरूपेण योग्यजनान् उपयुक्त स्थानेष् नियोक्तुं निर्दिष्टवान् अस्ति। विश्वविद्यालयस्य साधारण सभायां सभासद्भि कार्यकारी परिषदा परामर्श कृते सत्यपि बहुष् स्थलेष् संकायाध्यक्षाणां महाविद्यालय प्रमुखाणां च नियुक्ति कृता नास्तीति विषये प्रश्न उत्थापित आसीत्। तदन् प्रधानमन्त्रिणा ओलिना आगामिन पौषमासस्य सप्तम दिवसाभ्यन्तरे एव तेष् पदेष् नियुक्तिं कर्तुं निर्देशनं दत्तमस्ति। प्रधानमन्त्री केपी शर्मा ओली निगदति अन्तर्राष्ट्रिय विवाद समाधानस्य कृते विश्वसनीय स्थलस्य तटस्थ स्थलस्य च रूपेण नेपाल स्थापयितुं शक्यते। अन्तर्राष्ट्रिय वैकल्पिक विवाद समाधान केन्द्रेण ह्य ललितपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली अन्तर्राष्ट्रिय विवादस्य समाधानाय प्रतिबद्धताम् अभिव्यनक्। विवाद समाधान कार्य संलग्नानां विभिन्नानां देशानां संस्थानां विषय विज्ञानां व्यवसायिनां च सहभागितायां मध्यस्थतायाः मेलनस्य च माध्यमेन विवाद समाधानाय प्रोत्साहयितुं नेपाले अन्तर्राष्ट्रिय सम्मेलनम् आयोजितमस्ति। गृहमन्त्री रमेश लेखकः कथयति अपराधस्य नियन्त्रणं विधिनां क्रियान्वयनं विपद व्यवस्थापनं च विधातुं स्तरस्त्रयस्य सर्वकाराणां समन्वयेन अग्रे वर्धनीयम्। बागमती प्रदेश सर्वकारस्य आन्तर विषय मन्त्रालयेन ह्य काष्ठमण्डपे आयोजितायां शान्ति सुरक्षा विपद व्यवस्थापन सम्बन्धान्तर प्रदेश स्तरीय कार्यशाला गोष्ठ्यां गृहमन्त्री लेखकः संविधानेन प्रदत्तस्य दायित्वस्य निर्वहणाय मिलित्वा कार्यं कर्तव्यमिति बलं प्रादात्। गृहमन्त्री लेखकः संविधानतः सहकार्ये समन्वये सहास्तित्वे च आधृतायाः संघीयतायाः राज्येन अंगीकरणात् स्तरस्त्रयस्यैव सर्वकाराणां समन्वयेन प्रशासनिक कार्याणि अग्रे वर्धनीयानीति बलं प्रादात्। तदवसरे गृहमन्त्री लेखकः प्रहरी समायोजनस्य कार्यं शीघ्रमेव सम्पाद्य संघीयता अतिरिक्त सबला करिष्यते इति समस्पष्टयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः भाषते औषधाविधेयकस्य प्रारूपं निर्माय संसदि प्रस्तुतं पूर्वकार्यं विधीयमानमस्ति। प्रतिनिधिसभान्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः उपवेशे स्वास्थ्यमन्त्री पौडेलः नेपाले औषधोत्पादनस्य वितरणस्य गुणस्तरस्य च विषयेष् विधेयव्यवस्थां विधातुं सर्वकारेण निर्मितं औषधविधेयकम् आगामिनि अधिवेशने प्रस्तुष्यते इति असूचयत्। सम्प्रति नेपाले त्रिसप्तत्यधिकैकशतेन औषध निर्माण संस्थाभि उत्पादितै औषधै 50% आवश्यकता पूरितास्तीति चर्चयन् अन्यावश्यकतायाः पूरणम् आयाते एव निर्भरमस्तीति अवोचत्। उपवेशे सांसदः रोगिभ्यः सर्वविधानाम् औषधानां सहजतया प्राप्तेः व्यवस्थायै सर्वकारम् अनुरुन्धन्। परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा इत्यनया सह यूरोपीय संघस्य जलवायोः कार्यस्य कृते आयुक्तेन ओपके होस्ट्रा इत्यनेन मेलवार्ता विहिता अस्ति। बेल्जियम देशस्य ब्रसल्स स्थाने ह्य सम्भूते मेलने अनयोर्मध्ये नेपालस्य यूरोपीय संघस्य च सम्बन्धस्य नेपालस्य आर्थिक सामाजिक क्षेत्रेष् यूरोपीय संघेन विहितस्य सहयोगस्य आगामि दिनेष् विधातव्यस्य सहयोगस्य च विषयेष् विमृष्टमासीत्। नेपाल सदैव प्रजातन्त्रस्य विधेयशासनस्य मानवाधिकाराणां च पक्षे अस्तीति विज्ञापयन्ति मन्त्री डा राणा क्षेत्रेऽस्मिन् यूरोपीय संघेन नेपालाय प्रदत्तस्य सहयोगस्य प्रशंसां कृतवती। मन्त्री डा राणा यूरोपीय आकाशे नेपाली वायुसेवायाः प्रतिबन्धस्य अपसारणस्य विषयेऽपि प्रयासं विधातुं आयुक्तस्य समक्षम् अनुरुणत्। भारतस्य राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया नेपालस्य प्रधानसेनापतये अशोक राज सिग्देलाय भारतीय स्थल सेनाया मानार्थ महारथी पदस्य चिन्हम् प्रदत्तमस्ति। भारतस्य राजधान्यां नयाँ दिल्ली नगरे राष्ट्रपति भवने ह्य आयोजिते विशेष समारोहे भारतस्य राष्ट्रपतिना मुर्मू इत्यनया प्रधान सेनापतिः सिग्देलः भारतीय स्थल सेनायाः मानार्थ महारथी पदेन विभूषितोऽस्ति। नेपाल भारतयोर्मध्ये परस्परं सैन्य सम्बन्धस्य सुदृढीकरणाय 50-29 ख्रैस्ताब्दादेव उभयोरपि देशयोः प्रधान सेनापतये सेनायाः मानार्थ महारथी पद प्रदानस्य परम्परा वर्तते। भारतस्य स्थल सेनाध्यक्षस्य उपेन्द्र द्विवेदिनः औपचारिक निमन्त्रणायां प्रधान सेनापतिः सिग्देलः भारतस्य पञ्चदिवसीय भ्रमणाय गतमंगलवासरे नयाँ दिल्ली नगरं गतवान् अस्ति। भ्रमणस्य क्रमे भारतस्य विभिन्न उच्चपदस्थै पदाधिकारिभिः सह मेलवार्तां कृत्वा प्रधान सेनापतिः सिग्देलः अद्य स्वदेशं प्रत्यागच्छन् अस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः निगदति आत्मनिर्भर राष्ट्रियार्थतन्त्रस्य उद्देश्ये केन्द्रितः सन्तः उद्योग व्यवसायीभिः अग्रे वर्धनीयम्। चितवन जनपदस्य भरतपुर नगरे ह्य नेपाल उद्योग व्यापार महासंघस्य तृतीय साधारण सभायाम् अध्यक्ष प्रचण्ड देशस्य अर्थतन्त्रं सुदृढं विधातुं मध्यमवर्गीय जनः उपरि उत्थापनीयः इति प्रावोचत्।